नमश्चण्डिकायै मार्कण्डेय उवाच यद्गुह्यम् परमम् लोके सर्वरक्षाकरम् नृणाम् यन्न कस्यचिदाख्यातम् तन्मे ब्रूहि पितामहः ब्रह्मोवाच अस्ति गुह्यतमम् विप्र सर्वभूतोपकारकम् देव्यास्तु कवचम् पुण्यम् तच्छृणश्व महामुने प्रथमम् शैलपुत्री च द्वितीयम् ब्रह्मचारिणी तृतीयम् चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् पञ्चमम् स्कन्दमातेति षष्ठम् काद्यायनीति च सप्तमम् कालरात्रीति महागौरीति चाष्टमम् नवमम् सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः उक्तान्येतानि नामानि ब्रह्मणैव महात्मना अरदिनादह्यमानस्तु शत्रुमध्ये गतोरणे विषमे दुर्गमे चैव भयार्ताः शरणम् गताः न तेषाम् जायते किञ्चिदशुभम् रणसङ्कटे नापदम् तस्य पश्यामि शोकदुःखभयम् नहि यैस्तु हत्या स्मृता नूनम् तेषाम् वृद्धिः प्रजायते ये त्वाम् स्मरन्ति देवेशि रक्षसे तान्न संशयः प्रेतसंस्थातु चामुण्डा वाराही महिषासना ऐन्द्री गजसमारूढा वैष्णवी गरुडासना माहेश्वरी वृषारूढा कौमारी शिखिवाहना लक्ष्मी पद्मासना देवी पद्महस्ता हरिप्रिया श्वेतरूपधरा देवी ईश्वरी वृषवाहना ब्राह्मी हंससमारूढा सर्वाभरणभूषिता इत्येता मातरः सर्वाः सर्वयोगसमन्विताः नानाभरणशोभाढ्या नानारत्नोपशोभिताः दृश्यन्ते रथमारूढा देव्यक्रोधसमाकुलाः शङ्खम् चक्रम् गदाम् शक्तिम् फलम् च मुसुरायुधम् केटकम् तोमरम् चैव परशुम् पाशमेव च कुन्तायुधम् त्रिशूलम् च शार्गमायुधमुत्तमम् दैत्यानाम् देहनाशाय भक्तानामभयाय च धारयन्त्यायुधानीत्थम् देवानाम् चैताय वै नमस्ते सु महारौद्रे महाघोरपराक्रमे महाभये महोत्साहे महाभयविनाशिनि त्राहि माम् देवि दुष्प्रेक्षे शत्रूणाम् भयवर्धिनि प्राच्याम् रक्षतु मामैत्री आग्नेयामग्निदेवता दक्षिणेव तु वाराही नैरृत्याम् खड्गधारिणी प्रतीच्याम् वारुणी रक्षेत् वायव्याम् मृगवाहिनी उदीच्याम् पाककौमारी ऐशान्याम् शूलधारिणी पूर्वम् ब्रह्माणि मे रक्षेदस्ताद् वैष्णवी तथा एवम् दश दिशो रक्षेच्चामुण्डा शववाहना जया मे चागतः पातु विजया पाकपृष्ठतः अजिता वामपार्श्वे तु दक्षिणे चापराजिता शिखामुद्योदिनी रक्षे धुमामूर्ध्निर्व्यवस्थिता मालादनीलाटे च भो रक्षे यशस्विनी त्रिनेत्रा च भोर्मध्ये यमघण्टा च नासिके शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोद्वारवासिनी कपोलौ कालिका रक्षेत् कर्णमूले तु शाङ्करी नासिकायाम् सुबन्धा च उत्तरोष्ठे च चर्चिका अधरे चामृतकालिपायाम् च सरस्वती दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका घण्टिकाम् चित्रघण्टा च महामाया च तालुके कामाक्षी चिबुकम् रक्षेद्वाचम् मे सर्वमङ्गला ग्रीवायाम् भद्रकाली च पृष्ठवंशे धनुर्धरे नीलग्रीवा बहिः कण्ठे।